इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्य स्वीये मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं 15 संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शनं प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालय इत्येतेषां यूट्यूब वाहिनीष्वपि श्रोतुं द्रष्टुं वा शक्यते इति। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अनुक्षणमेव अयं कार्यक्रमः क्षेत्रीयभाषास्वपि श्रोतुं शक्यते। क्षेत्रीयभाषासु अस्य पुनः प्रसारणं रात्रौ 8 भविता। केन्द्रीयगृहमन्त्री अमितशाहः अद्य पश्चिमबंगस्य भारतबांग्लादेशयोः सिम्नी स्थिते पेट्रापोल इत्यत्र लैण्डपत्तने नवनिर्मितस्य यात्रिभवनस्य कार्गो गेट इति मैत्रीद्वारस्य च उद्घाटनं करिष्यति। अस्य भवनस्य उद्देश्यं भारतबांग्लादेशयोः नागरिकाणां कृते अन्ताराष्ट्रियव्यापारे पारागमने च सौविध्यप्रदानम् अस्ति। उत्तर 24 परगनामण्डले स्थितं पेट्रापोल भूपत्तनं दक्षिण एशियायाः बृहत्तमं स्थलपत्तनम् अस्ति, तथा च द्वयोः देशयोः व्यापार वाणिज्ययोः च कृते महत्वपूर्णद्वाररूपेण कार्यं करोति। पेट्रापोल बेनापोल पारगमनं महत्वपूर्णेषु स्थलसीमक्षेत्रेषु अन्यतमम् अस्ति। पेट्रापोल भारतस्य अष्टमं बृहत्तमं अन्ताराष्ट्रिय अप्रवासन पत्तनम् अपि अस्ति, यत् प्रतिवर्षं 2.35 लक्षं यावत् यात्रिणाम् आवागमनस्य सौविध्यं प्रदास्यति। भारतीय जनता पार्टीति दलेन महाराष्ट्र विधानसभा निर्वाचनार्थं 22 प्रत्याशिनां द्वितीय नामावली प्रकाशिता। दलेन देवयानी सुहास फरांडे इत्यस्य नासिक सेंट्रल इत्यासनात्, डॉक्टर मिलंद रामजी नरोते गढ़चिरौली आसनात्, चैनसुख मदनलाल संचेती मलकापुर विधानसभासनात् नैर्वाचनिक समरांगणे भविष्यति। स्पेन देशस्य राष्ट्रपतिः पेड्रो सांचेज इत्यसौ अद्यारभ्य अस्य मासस्य 29 यावत् भारतस्य आधिकारिक यात्रायाम् अस्ति। तेन सह तस्य भार्या बेगोना गोमेज इत्यसौ च आगच्छति। विदेशमन्त्रालयेन एकस्मिन् प्रदत्ते वक्तव्ये कथितं यत् श्री सांचेजस्य इयं प्रथमा भारतयात्रा भविष्यति। इतः पूर्वं प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रपतिः सांचेजः च बहुपक्षीयोपवेशनेषु अनेकवारं मिलितवन्तौ। यात्राप्रवासे राष्ट्रपतिः सांचेजः प्रधानमन्त्री श्रीमोदिना साकं मण्डलस्तरीयां वार्तां समाचरिष्यति। उभौ नेतारौ वडोदायां C95-200 इत्याख्यस्य विमानस्य स्थापित संयंत्रस्य उद्घाटनं विधास्यतः। एतद्भि विमाननक्षेत्रे मेक इन इंडिया इत्यस्य उपक्रमस्य अन्तर्गतं भारतेन विहितः प्रमुखः पदक्षेपो वर्तते। अद्य अहमदाबाद नगरे भारतीय महिला क्रिकेट दलं तिसृणाम् एकदिवसीय क्रिकेट क्रीडा श्रृंखलायाः द्वितीये द्वन्द्वे न्यूजीलैंड दलं सम्मुखी करिष्यति। भारतीय समयानुसारं क्रीडायाः आरम्भः अपराह्ने 11:30 भविष्यति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणं आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 11:30 भविष्यति। भवन्तः सर्वे श्रोतुं प्रभवन्ति। इति वार्ताः।